सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र विधिलिङ्गलकारः। तत्र विधिलिङ्गलकारः तत्र तस् विधिलिङ्गलकारस्य द्वैविध्यम् अस्ति इति जानीमः। अर्थविषये द्वैविध्यं, रूपविषये तु एकमेव, किन्तु अर्थविषये तत्र विद्यर्थम् इति एकः अर्थः, अन्यः अर्थः सम्भावनार्थः इति एतत् सर्वं वयं दृष्टवन्तः। तत्र गतवर्गे वयं तत्र अभ्यासः ये सन्ति सर्वान् कृतवन्तः इति मन्ये। केवलं पेज् 100 मध्ये करणीयम् इति मन्ये, सत्यं वा? हा, अतः भगवद्गीतायाः श्लोकान् तत्र परिशील्य तदनन्तरं तत्र अग्रे सरामः। अतः तत्र अस्तु, उषा भगिनी आरम्भं करोति वा तर्हि?
आं महोदय।
पेज् 100।
तत्तत् सङ्ख्याकान् गीताश्लोकान् परिशील्य कीदृशस्य तपसः आचरणाय कः किं कुर्यात् इति आवरणे स्थितस्य धातोः विधिलिङ्गलकाररूपेण निर्दिशत। क शारीरतपसः आचरणाय जनः। श्लोकं पठामि वा महोदय?
अस्तु, पठतु भगिनि।
देवद्विजगुरुप्राज्ञ पूजनं शौचमार्जवं ब्रह्मचर्य अहिंसा च शारीरं तप उच्यते। उच्यते इति विधिलिङ्गलकाररूपम् अस्ति महोदय। तत्र देव
उच्यते इति
विधिलिङ्गलकार वदेत्
उच्यते तु कर्मणि प्रयोगः अस्ति।
उच्यते
देव द्विज गुरु प्राज्ञान्।
तत्र कीदृशस्य तपसस्य आचरणाय कः किं कुर्यात्?
पूजन,
अतः पूजा पूज इति अस्ति, पूजनम् इति अस्ति, अतः तत्र पूजनम्
आचरणाय जनः देवद्विज गुरु प्राज्ञान्
पूजा पूज इदानीं पूज इति पूज तत्र पूज इति धातुः अस्ति भगिनि।
पूज अस्ति, पूजनं ल्युडन्तपदमस्ति तत्र
न, किन्तु पूजनं मास्तु, यतोहि ल्युडन्तम् आसीत् चेत् तत्र किं भवति? ल्युडन्तम् अस्ति चेत् तस्मात् प्राक् षष्ठी भवेत्।
षष्ठी,
किन्तु तत्र देवद्विज गुरुप्राज्ञान् इति एव अस्ति कर्मपदम्। अतः पूज इति धातु स्वीकृत्य वदतु।
पूजान्
न पूजन् इति पूज इति धातुः भगिनि। इदानीं धातु एव पूज,
पूजनम् अस्ति न महोदय?
नामपदं मास्तु भगिनि। अस्तु, अन्यकोऽपि वद भगिनि।
पूजेत्,
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 सर्वे जनाः देवद्विग
ओ विधिलिङ्गलकार
प्राज्ञान् पूजेत्।
शारीर तपसः आचरणाय जनः पूजेत्
तत्र पूजेत् तत्र विधिलिङ्गलकारः तत्र पूजयेत् प्रायशः पूजयेत्
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 पूजयेत् इति कर्मणि प्रयोगेन
न पूजयेत् एव अस्ति कर्तृमध्ये अपि
निच्
तत्र ओ निच् मध्ये इति वा? अस्तु,
न जानामि, पूजयेत् तु
समीचीनं महोदय, समीचीनं समीचीनं समीचीनं, तत्र पूजेत् इति एव भवति खलु. अस्तु, एकनिमिषं. पूजेत् इति एव पूजेत् किं भगिनि,
पूजेत् अस्ति वा पूजयेत् अस्ति वा?
न, पूजेत् पूजेत् इस् रैट्.
पूजेत्
पूजेत्
पूज धातु अस्ति, पूज रै
पूज पूजेत् इति रूपम् आयाति. निजन्त
महोदय तत्र एतत्तु महोदय तत्र पूजायाम् इति अस्ति, चुरादिगणे अस्ति महोदय, दशमगणे. अतः तत्र पूजयति एव अस्ति, पूजयते पूजयति, यकारः अस्ति महोदय तत्र.
विधिलिङ्ग् लकार तु पूजयेत् पूजयति.
हा हा, लट् लकार एव, तत्र पूजति इति नास्ति, अत्र पूजयति इति अस्ति.
तत्रापि दशमे गणे निच् आयाति, निच् अस्ति.
पूजते इति किमपि नास्ति इति मन्ये महोदय, पूजति इति अस्ति वा? समीचीनप्रश्नः.
पूज्यते अस्ति महोदय,
पूज्यते तु न,
पूज्यत् न, पूज्यते इति अस्ति.
पूज्यते तु कर्मणि भगिनि, कर्मणि
कर्मणि, तत्तु कर्मणि अस्ति.
आत्मनेपदि लट्लकारे अस्ति महोदय, पूज्यते पूज्यते पूज्यन्ते,
पूजते इति
पूजते पूजते
न न न पूजते.
अतः अतः तत्र पूजयत् पूजयति इति एव लट्लकाररूपं खलु. अतः यतोहि तत्र अन्यान् पूजयति इति अस्ति इति मन्ये, अतः तत्र पूजयति इति एव अस्ति महोदय. अतः तत्र पूजयेत् इति
पूजयति पूजय
वदतु भगिनी, शोभा भगिनी.
पूजयति पूजयते इति अस्ति, पूजते इति न प्राप्तं महोदय.
अतः चिन्तयामि तत्र पूजयेत् यकारः एव अस्ति, पूजयेत् इति विधिलिङ्गकारः. अतः तत्र उषा भगिनी इदानीं वाक्यं वदतु. देवद्विज
देवद्विज गुरुप्राज्ञान् पूजयेत्.
हा अस्तु, सर् समीचीनं. हा अग्रे तत्र वेदा भगिनी अग्रे.
शौचम् आर्जवं च, शौचम् आर्जवं च आचरेत्
आचरेत्. हा समीचीनं. हा अस्तु, अग्रे नरेश् महोदय. इदानीं तत्र हिंसा न,
हिंसा न ते धातु अस्ति, कुर्वेत्.
हा तत्र किमस्ति,
कुर्यात्
कुर्यात् कुर्यात् हिंसा न, हिंसां न कुर्यात्, हिंसां हिंसां कर्मपदम्, हिंसां न कुर्यात्. अग्रे शोभा भगिनी अग्रे अन्तिमम्.
आं महोदय, तत्र ब्रह्मचर्यम् अस्तु, एकनिमिषं महोदय. तत्र
नमस्कारः महोदय.
नमस्कारः लक्ष्मी भगिनी, नमस्कारः. पुटसङ्ख्या 100.
ब्रह्मचर्यम् अहिंसा च शरीरं तप उच्यते इति अस्तु.
तत्र ब्रह्मचर्यं रक्ष इति धातुः अस्ति, अतः
हा रक्षिति अस्ति चेत् रक्षते, रक्षेत् इति भवति, रक्षति
ब्रह्मचर्यं रक्षेत्,
ब्रह्मचर्यं रक्षेत्.
हा ब्रह्मचर्यं रक्षेत्, समीचीनं. हा शुभदा भगिनी नमस्कारः. अस्तु अग्रे तत्र लक्ष्मी भगिनी.
नमस्ते महोदय.
नमस्कारः भगिनी, पेज् 100 अस्ति भगिनी.
आम् आम्
अस्तु, लक्ष्मी भगिनी अग्रे पठति वा द्वितीय
श्लोकः प्राप्तवती. कुत्र
वाङ्मय तपसः आचरणाय जनाः अस्तु, तर्हि तत्र नरेश् महोदय भवानेव आरम्भं करोतु तर्हि द्वितीय. हा
तृतीय, वाङ्मय तपसः आचरणाय जनाः अनुद्वेगकरं वाक्यं, वाक्यं धातु वद अस्ति, वदेत्
वदेत् वदेत् तत्र अनुद्वेगकरं वाक्यं, उद्वेगकरं नाम यद् वाक्यम् उद्वेगं करोति तादृशं वाक्यं मास्तु, अनुद्वेगकरं वाक्यम् एव वदेत्.
वदेयुः वदेयुः
हा समीचीनं भगिनी, जनाः समीचीनं भगिनी, वदेयुः उत्तमं. हा अस्तु, वेदभगिनी अग्रे द्वितीयं करोतु तत्र.
सत्यं सत्यं प्रियहितं च वाक्यं ब्रू ब्रूदातु अस्ति तत्. सत्यं प्रियहितं च वाक्यं ब्रू ब्रूयात्
ब्रूयात् इति
ब्रूयुः वा
हा हा ब्रूयात् इति एव समीचीनं भगिनि. हा हा ब्रूयात् इति अस्ति. हा
बहुवचने
हा ब्रू इति धातोः ब्रूयुः
धातुरूपमस्ति.
ब्रूयुः
ब्रूयुः
कुर्युः ब्रूयुः तादृशं. हा ब्रूयात् ब्रूयुः सम्पूर्णवाक्यं वदतु भगिनि.
वाङ्मयतपसः आचरणाय जनाः सत्यं प्रियहितं च वाक्यं ब्रूयुः
ब्रूयुः समीचीनम्. अस्तु, इदानीं लक्ष्मी भगिनी अग्रिमं करोति वा.
स्वाध्यायाभ्यासनं कृ धातुः अस्ति, कुर्युः
कुर्युः. अतः सम्पूर्णवाक्यं वदतु. वाङ्मयतपसः आचरणाय
वाङ्मयतपसः आचरणाय जनाः स्वाध्यायाभ्यासनं कुर्युः
कुर्युः समीचीनं. हा उत्तमम्. अस्तु अग्रे उषा भगिनी अग्रिम अभ्यासः.
ग मानस सत मानसतपसः आचरणाय अहम्
इदानीं भगिनी तत्र मानसतपसः इति अस्ति, तत्र विभक्ति का तत्र?
षष्ठी महोदय. आचरणाय चतुर्थी अहं.
कस्य आचरणाय? मानसतपसः आचरणाय अहम्
अहं मनः प्रसादं प्र उपसर्ग आप् आप् धातु अस्ति वा महोदय तत्र? आप्नो आप्नुयात् आप्नुये आप्नुये
अहम् अहम्
या
तत्र शक्नु शक्नुयात् शक्नुयात्
आप्नुयाम्
आप्नुयाम् समीचीनम्. हा इदानीं प्र उपसर्ग अस्ति अतः प्राप्नुयाम् हा समीचीनं भगिनि. हा इदानीं पूर्णवाक्यं वदतु.
मानसतपसः आचरणाय अहं मनः प्रसादं प्राप्नुयाम्
हा मनःप्रसादम् प्राप्नुयाम् प्राप्नुयां समीचीनम्. अस्तु अग्रे शोभा भगिनि.
आं महोदय, तत्र मानसतपसः आचरणाय अहं सौम्यत्वम् अपि च अन्यत् अपि अस्ति मौनम् आत्मविनिग्रहम् इति विनिग्रहः इति अस्ति. सौम्यत्वं मौनमात्मविनिग्रहः ग्रहं तत्र पुनः आप्नुयामेव भवति.
अस्तु, हा तत्र अत्र भिन्नधातुः अपि दत्तमस्ति किन्तु समीचीनं भगिनि. हा आप्नु आप्नु रूपं किमस्ति?
अहम् इति भवति चेत् आप्नुयाम् इति पुनः
आप्नुयाम् अहम् आप्नुयां समीचीनं. हा अहम् आप्नुयां समीचीनं भगिनि. हा अस्तु अग्रे शुभदा भगिनी कर्तुं शक्नोति वा?
आं महोदय, मानसतपसः आचरणाय अहं मौनं धातुः अस्ति पाल इति पाल इति चुरादिगणीय अस्ति, पालयति इति भवति इति तु अहं जानामि, परन्तु तस्य विधिलिङ्ग् किं भवति? पाल
तत्र पाठयति इति चिन्तयतु, पाठयेत् पाठयेताम्
पाठ ओके ओके हा पालयेयं भवति तदा.
हा पालयेयं समीचीनं भगिनि. हा पालयेयं मौनं पालयेयं समीचीनं भगिनि. हा उत्तमं
महोदय. पालेयम् अथवा पालयेयं
तत्र पालति इति नास्ति महोदय, पालयति इति अस्ति.
ओ अस्तु, पालयेयं
हा यतोहि तत्र धातु यतः तत्र पूर्वमासीत् खलु महोदय पूजयति इति.
अस्तु
तादृशं पालयति एव अस्ति, पालति इति नास्ति. अतः पालयति इति एव मूलरूपं क्रियापदं तस्य विधिलिङ्गकः पालयेत् इति प्रथमपुरुषे उत्तमपुरुषे पालये तदनन्तरं पालयेयम् इति अस्तु अग्रे प्रिया भगिनि
महोदय नमस्ते महोदय
नमस्कार भगिनि
मानसतपसः आचरणाय अहम् आत्मविनिग्रहं कृ इति धातु अस्ति कुर्याम् इति वा
कुर्यां समीचीनं हा अहम् आत्मनिग्रहं
कुर्यां
कुर्यां समीचीनम् अस्तु अग्रे लक्ष्मी भगिनि
भावसंशुद्धिं
रक्षे अतः प्रथमपुरुषे किम् अस्ति प्रथमपुरुषे एकवचने किम् अस्ति रक्ष पठति पठेत् इति भवति रक्षति किं भवति रक्षेत् इदानीम् उत्तमपुरुषे एकवचने पठेयम् इति भवति अतः
रक्षेयं
रक्षेयं हा समीचीनं भगिनि इदानीं पूर्णवाक्यं वदतु
मानसतपसः आचरणाय अहं भावसंशुद्धिं रक्षेयम्
रक्षेयं हा पठेयं रक्षेयं समीचीनं हा अस्तु उत्तमम् इदानीं तत्र अग्रे श्लोकत्रयमस्ति शुभ भगिनी आरम्भं करोति वा प्रथमश्लोकं
आं महोदय एतेषु गीताश्लोकेषु प्रयुक्तानि विधिलिङ्लकाररूपाणि परिशीलयत शनैः शनैरुपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् तत्र शनैः शनैः उपरमेत् तत्र रम् इति धातोः रमेत् इति उप इति उपसर्गसहित रूपम् उपरमेत् इति बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् इति तत्र चिन्त् इति धातुः चिन्तयेत् इति निजन्तरूपं चिन्तयति इत्यस्य चिन्तयेत् इति प्रथमपुरुषे एकवचने भवति अपि च अन्यत् उपरमेत् इति अपि प्रथमपुरुषे एकवचने
विधिलिङ्गकारः
आम्
समीचीनं भगिनि हा तत्र अतः तत्र उपरमेत् इति अस्ति अपि
चिन्तयेत्
इति अस्ति अस्तु समीचीनं तत्र अस्तु अग्रे तत्र अत्र किमपि वक्तव्यम् अस्ति वा तत्र किन्तु यत्
शनैः शनैः उपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् तत्र आत्मा संयमस्य विषये इति मन्ये महोदय
सत्यं भगिनि
शनैः शनैः उपरमेत् बुद्ध्या धृतिगृहीतया
अत्र यत् अहं मया प्रेषितं पूर्वं तत्र भगवद्गीता डाट् इ यु तत्र व्याकरणविषये सर्वं दत्तमस्ति अतः तत्र द्रष्टुं शक्नुमः किन्तु अत्र विधिलिङ्गकारस्य रूपं तत्र चिन्तयेत् अस्ति अपि उपरमेत् इति अस्ति अस्तु अग्रे तत्र हा शुभदा भगिनी द्वितीयश्लोकं करोति वा
महोदय यतो यतो निश्चरति मनश्चञ्चलं चञ्चलं मस्थिरं चञ्चलम् अस्थिरम् अत्र अस्ति तत्र ततस्ततो नियम्यै तदात्मन्येव वशं नयेत्
नियम्य एतद् आत्मनि एतद् आत्मनि एव वशं नयेत्
नियम तत्र किमस्ति महोदय ततस्ततो
नियम्य
अस्तु
एतत् एतत् आत्मनि एव
अत्र नयेत् इति विधिलिङ्गकारः अस्ति
नी धातुः
नी धातोः प्रथमपुरुष एकवचने
समीचीनं भगिनि हा तदेव अतः तत्र यतः यतः यतो
यतो यतो निश्चरति मनः मनः चञ्चलम् अस्थिरम्
हा विशेषणं मनः चञ्चलम् अस्थिरं
ततः ततः नियम्य तदात् एतत् आत्मनि वशं नयेत्
हा वशं नयेत् हा तत्र मनः इतस्ततः गच्छति किन्तु तस्य
नियमं कृत्वा
नियम्य आत्मनि एव तत्र स्थापयेत् समीचीनं नयेत् अस्तु समीचीनम् अस्तु अग्रे तत्र वेदा भगिनी तृतीयं करोति वा
हा महोदय न बुद्धिभेदं जनयेद ज्ञानां कर्मसङ्गिनां जोषयेत् सर्वकर्माणि विद्वान् युक्तसमाचरन् न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनां जनयेत् तत्र विधिलिङ्गकारः अस्ति जनयेत् न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनां
समीचीनं भगिनि
जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् तत्र
जोषयेत् अपि
जोषयेत् करेक्ट्
जोषयेत् सर्वकर्माणि सर्वकर्माणि
विद्वान् युक्तः समाचरन्
समाचरन् अतः तत्र जोषयेत् जोषयेत् अपि जनयेत् समीचीनं अस्तु तर्हि इदानीं तत्र अग्रेसरं सरामः एतावत् तत्र किम् आसीत् इत्युक्ते तत्र वयं विधिलिङ्गकारस्य परिचयं प्राप्तवन्तः किन्तु एतावत् तत्र परस्मैपदीधातूनां परिचयमेव प्राप्तवन्तः अग्रे आत्मनिपदिनः धातवः ये सन्ति तेषां लङ्लकारः अपि विधिलिङ्गकारस्य रूपाणि पश्येम अतः अग्रे तत्र कथा अस्ति तत्र एकवारं तत्र हा प्रायशः प्रथमतया तत्र रूपं कथं भवति यतोहि तत्र विधिलिङ्गकारः अपि लङ्लकारस्य अर्थः कः तत्र तयोः अर्थः कः इति जानीमः अतः तत्र प्रथमतया रूपाणि पश्यामः अतः तत्र शोभा भगिनी तत्र पेज् 102-103 मध्ये भगिनि हा तत्र वृद्ध धातुः तस्य लङ्लकाररूपाणि दत्तानि सन्ति तदनन्तरम् अग्रिमे पुटे विधिलिङ्गकाररूपाणि अपि दत्तानि सन्ति अतः एकवारं पठति वा
आं महोदय तत्र आत्मनेपदीनां धातूनां लङ्लकारे रूपाणि एवं भवन्ति वृद्ध धातुः अवर्धता अवर्धेताम् अवर्धन्त अवर्धथाः अवर्धेताम् अवर्धध्वम् अवर्धे अवर्धे अवर्धावहि अवर्धामहि वृद्ध एव किल महोदय
इति लङ्लकाररूपाणि
लङ्लकार
इदानीम् अग्रिमे पुटे विधिलिङ्गकाररूपाणि अपि सन्ति
तत्र तस्य एव धातोः विधिलिङ्गलकारे रूपाणि एवं भवन्ति वर्धेत वर्धेयातां वर्धेरन् वर्धेथाः वर्धेयाथां वर्धेध्वं वर्धेय वर्धेवहि वर्धेमहि
हा इति अस्ति अतः तत्र किञ्चित् वदति वा तत्र साम्यं कुत्र अस्ति अपि भेदः कुत्र अस्ति इति
तत्र साम्यम् अवर्धेतां तत्र अस्तु प्रथमपुरुषे अवर्धता इति तत्र वर्धेता इति अस्ति किञ्चित् साम्यम् अस्ति तत्र तत्र सर्वत्र लङ्लकारस्य कृते तु अट् आगमः आगच्छति अतः आदृश्यते आदौ सर्वत्र
समीचीनं हा अतः लङ्लकारे अकारः आदौ अस्ति तद्
अस्ति
तद् भेदः स भेदः अस्ति
भेदः अस्ति किन्तु आ नास्ति चेत् किञ्चित् साम्यम् अस्ति वर्धता अस्ति चेत् वर्धेत इति भवति
तत्र
वर्धेतां
सर्वत्र एकारः अस्ति खलु तत्र वर्धे
तत्र आम् आं महोदय तत्र द्वितीयवचने
न न न विधिलिङ्गकारः
द्वितीयवचनं न क्षमतां प्रथमपुरुषे मध्यमपुरुषे द्विवचने अवर्धितां
लङ्लकारे समीचीनं भगिनी तत्र लङ्लकारे एकारः केवलं द्विवचने तत्र उत्तमपुरुषे मध्यमपुरुषे अस्ति
भवति
किन्तु
तथा एव
एकारः कुत्र अस्ति
विधिलिङ्गकारे एकारः सर्वत्र अस्ति किन्तु ताम् इति द्विवचने भवति किन्तु सर्वत्र एकारः दृश्यते विधिलिङ्गकारे
सर्वत्र एकारः अस्ति ततः तत्र मध्ये तत्र वर्धेत वर्धेयातां वर्धेरन् तत्र वर्धेयाताम् इति वर्धेत इति अस्ति किन्तु लङ्लकारे अवर्धत इति अस्ति अतः सामान्यम् अस्ति खलु वर्धे बहिः इति अस्ति उत्तमपुरुषे द्विवचने वर्धे बहिः किन्तु लङ्लकारे अवर्धा बहिः
तत्रापि साम्यम् अस्ति
अतः तत्र साम्यम् अस्ति एव भेदः अपि अस्ति तत्र अस्तु तत्र धन्यवादः भगिनी अस्तु तत्र प्रिया भगिनी वदति वा कुत्र भेदः अस्ति इति तयोः लकारयोः मध्ये केवलं रूपाणि दृष्ट्वा तत्र वृद्धधातुः लङ्लकारः अपि विधिलिङ्गकारः
आम् महोदय भेदः लङ्लकारे अपि च वृद्धिलिङ्गकारे
तत्र अस्मिन् पुरुषे वचने तत्र भेदः किञ्चित् भेदः अस्ति इति
आम् महोदय बहुवचने किञ्चित् भेदः अस्ति तत्र
प्रथमपुरुषे
प्रथमपुरुषे बहुवचने तत्र किञ्चित् भेदः अस्ति
वदतु तत्र लङ्लकारे किम् अस्ति रूपं
वर्धेरन् इति अस्ति
वर्धेरन् इति अस्ति समीचीनं लङ्लकारे
लङ्लकारे अवर्धन्त
अवर्धन्त इति अस्ति समीचीनं भगिनी तत्र वर्धेरन् इति किञ्चित् भेदः अस्ति वर्धेरन् अत्र तु अवर्धन्त इति अस्ति अपि अन्यत्र कुत्रापि अस्ति वा तत्र
आम् महोदय मध्यमपुरुषे लङ्लकारे एकवचने किमपि वर्धे वर्धस्व वा वर्धस्व अस्ति वा
वर्धेताः एव
वर्धेता ओ सम्यक् समानमेव
लोट् लकारः नास्ति भगिनि इदानीं लोट् लकारे वर्धस्व इति भवेत् विधिलिङ्गकारः विधिलिङ्गकारः वर्ध वर्धेताः इति एव अस्ति किन्तु तत्र तत्र द्विवचने भेदः दृश्यते वा
अवर्धताम् इति अस्ति समानमेव किञ्चित् एव
अवर्धेताम् इति अत्र अस्ति लङ्लकारे किन्तु विधिलिङ्गकारे वर्धे याताम् इति अस्ति
ओ या मध्यमे अस्ति
मध्ये या आगच्छति तत्र प्रथमपुरुषे मध्यमपुरुषे मध्ये या इति अस्ति द्विवचने
बहुवचने अवन्धध्वम् अस्ति वर्धे यध्वम् एव अस्ति तत्रापि य मध्ये मध्ये आगच्छति विधिलिङ्गकारे तत् लङ्लकारे
सत्यं भगिनि केवलं तत्र द्विवचने उत्तमपुरुषे मध्यमपुरुषे यकारस्य तत्र मध्ये अस्ति मध्ये अस्ति समीचीनं अतः तत्र साम्यमपि अस्ति इति कृत्वा तत्र बस् एकमेव रूपमिति न वक्तुं शक्नुमः किन्तु साम्यं तत्र सामीप्यम् अस्ति तयोः मध्ये इति कृत्वा एकस्मिन्नेव पाठे स्थापितवन्तः अस्तु अतः तत्र वर्धते इति दृष्टवन्तः इदानीं तत्र नरेशमहोदय इदानीं तत्र लब् धातोः रूपाणि एकवारं पठति वा
महोदय लब् धातुः लङ्लकाररूप लभत् अलभत अलभेताम् अलभन्त अलभथाः अलभेथाम् अलभत् अलभे अलभावहि अलभामहि लङ्लकाररूप अस्ति विधिलिङ्गरूप अस्ति लभेत लभेयाताम् लभेरन् लभेथाः लभेयाथाम् लभे लभेद्वम् लभेय लभेवहि लभेमहि
हा इति समीचीनं हा अस्तु इदानीम् एतत् कुर्मः मनसि स्थापितं भवेत् इति कृत्वा एकवारं तत्र पुस्तकं पिहित्वा इदानीं तत्र एकवारं तत्र वदामः तत्र लब् इति एव स्वीकुर्मः तत्र लङ्लकारस्य रूपाणि तत्र वेदा भगिनी तत्र वदति वा लभते इति अलभत
लङ्लकारं
केवलं लङ्लकारः अलभत
अलभत अलभेत ओ विदौट् सीङ्ग् द बुक् अलभत अलभेताम् अलभे लभन्त
अलभन्त समीचीनं
लभेताः
अलभामहि 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 हा अलभामहि हा समीचीनं भगिनी अस्तु उषा भगिनी इदानीं तत्र विधिलिङ्गलकारः लब् धातोः
विधिलिङ्गलकार लब् धातुः अस्तु लभेत लभे यातां लभेरन् लभेथाः लभे यातां लभे द्वं लभेय लभे वहि लभे महि
हा समीचीनं भगिनि अस्तु उत्तमम् अस्तु इदानीं तत्र शुभदा भगिनी इदानीं तत्र अध्यायते इति लङ्लकारः
किं महोदय
जायते जायते
जायते जायते
लङ्लकारः
लङ्लकारः अजायत अजायेताम् अजायन्त अजायथाः अजायथाः अजायेथाम् अजायध्वम् अजाये अजायावहि
अजायामहि
अजायावहि अजायामहि
हा तत्र लङ्लकारे एकारः नास्ति केवलं तत्र द्विवचने एव द्विवचने एव एकारः किन्तु विधिलिङ्गकारे सर्वत्र एकारः अस्तु इदानीं तत्र लक्ष्मी भगिनी इदानीं तत्र जायते इति पदस्य तत्र विधिलिङ्गकारः
जायेत जायेयातां जायेरन् जायेताः जायेयातां जायेध्वं जायेय जायेवहि जायेमहि
जायेमहि समीचीनं हा अस्तु अग्रे नरेश महोदय इदानीं तत्र शोभते इति लङ्लकारः
अशोभत अशोभेताम् अशोभन्त अशोभन्त अशोभथाः अशोभेथाम् अशोभध्वम्
अशोभे यकारः विधिलिङ्गकारे अशोभे
अशोभे अशोभावहि अशोभामहि
हा समीचीनं हा अस्तु अग्रे प्रिया भगिनी इदानीं तत्र विधिलिङ्गकारः
आम् महोदय शोभेत शोभेयातां शोभेरन् शोभेथाः शोभेयाथां शोभेध्वं
समीचीनं
शोभये
अशोभेय
शोभेय शोभेवहि शोभेमहि
हा उत्तमं भगिनि हा अस्तु समीचीनम् अस्तु अग्रे इदानीं शोभा भगिनि इदानीं तत्र कम्पते इति
कम्पते
हा लङ्लकारः
लङ्लकारः अकम्पता अकम्पताम्
अकम्पेताम् अकम्पेताम्
अकम्पेताम् अकम्पत् अकम्पन् क्षम्यताम् अकम्पन्
अकम्पन्त
लङ्लकारः किल महोदय
हा 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 लङ्लकारः अकम्पत आरम्भतः अकम्पत
अकम्पत
अकम्पेताम्
अकम्पेताम् अकम्पन्त अकम्पथाः अकम्पेथाम् किं भवति तत् अकम्पे
सत्यम् अकम्प अकम्पेथाम्
अकम्पेथाम् अकम्पध्वम् अकम्पे अकम्पावहि अकम्पामहि
समीचीनं भगिनि हा समीचीनं हा अस्तु अस्तु अग्रे तत्र उषा भगिनी इदानीं तत्र विधिलिङ्गकारः कम्पते
कम्पते न महोदय विधिलिङ्गकारः आत्मनेपदिरूपं कम्पेत कम्पेयातां कम्पेरन् कम्पेताः कम्पेयाथां कम्पेध्वं कम्पेय कम्पे वहि कम्पे महि
हा समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे वेदा भगिनी इदानीं तत्र विद्यते
विद्यते लङ्लकार वा
लङ्लकारः
लङ्लकार लङ्लकारे आत्मनेपदी त इताम् अन्त था इतां द्वम् ई वहि महि ओके सो अकम्पत अविद्यत
अविद्यत
अविद्येताम् अविद्यन्त अविद्येताम् अविद्यन्त अविद्यताः अविदताः
अविद्यताः अविद्यताः
अविद्यताः वा
अविद्य
विद्य अविद्यताः अविद्येताम् अविद्यध्वम् अविद्ये अविद्यावहि अविद्यामहि
हा समीचीनम् अस्तु इदानीं तत्र अग्रे लक्ष्मी भगिनी इदानीं तत्र विधिलिङ्गकारं कृतवती वा पूर्वम् अस्तु अस्तु अतः तत्र शुभदा भगिनी भवती किं कृतवती विधिलिङ्गकारं कृतवती वा पूर्णं पूर्वं
न न महोदय
हा अस्तु समीचीनं हा
अधुना
करोमि वा करोतु भगिनि
विद् धातु हा विद्य विद्येत विद्येया विद्येत विद्येयातां विद्येरन् विद्येथाः विद्येयातां विद्येध्वं विद्येय विद्येवहि विद्येमहि
हा समीचीनम् अस्तु उत्तमम् अस्तु अग्रे तत्र हा लक्ष्मी भगिनी इदानीं तत्र इदानीं तत्र रमति इति करोति वा
रमति अरमत अरमेताम् अरमन्त अरमताः अरमेताम् अरमध्वम् अरमे अरमावहि अरमामहि
हा समीचीनम् अस्तु एतावत् तत्र शोभा भगिनी भवती तत्र विधिलिङ्गकारं कृतवती वा
न महोदय लङ्कृतवती
अस्तु करोतु भगिनि
रमेता रमेयतां रमेरन् रमेथाः रमेयथां रमेध्वं रमेय रमेय रमेवहि रमेमहि
हा रमेवहि रमेमहि समीचीनं हा अस्तु प्रिया भगिनी भवती तत्र विधिलिङ्गकारं लङ्लकारं द्वयमपि कृतवती वा
कृतवती महोदय
अस्तु भगिनि अस्तु नरेश महोदय भवान् कृतवान् वा
अहं लङ्लकारः कृतवान्
विधिलिङ्गकारः न कृतवान् वा अस्तु अतः तत् अस्तु महोदय अतः तत्र हा तत्र जायते इति करोति वा
जायते जायेत जायेयातां
जायेरन् जायेथाः जायेथाम् जायेयाथाम् जायेध्वम् जायेय जायेवहि जायेवहि जायेमहि
हा समीचीनम् अस्तु
हा जायन्त महोदय प्रथमपुरुष भवान् उक्तवान् अजारन्
न न इदानीं विधिलिङ्गकः खलु
विधिलिङ्ग अस्ति
विधिलिङ्गकर भगिनि
उषा लिङ्गलकर उक्तवान् न महोदय
न न न विधिलिङ्गले अतः तत्र प्रथमपुरुषे बहुवचने किम् अस्ति रूपम्
जायेत जायेयातां जायेरन्
जायेरन् समीचीनं वा भगिनि अस्तु अस्तु तर्हि इदानीम् उषा भगिनी भवती द्वयमपि कृतवती खलु
न महोदय लङ्ग् लङ्लकार न कृतवती
लङ्लकार न कृतवती अस्तु इदानीं तत्र कम्पति इति करोतु
कम्पति कृतं महोदय
कम्पति कृतम् अस्तु भगिनि अतः तत्र लभते इति करोतु लभते अत्र एव अस्ति लभते अत्र एव अस्ति अतः भगिनि तत्र एतत् करोतु तत्र विद्यते किं भगिनि
रमते
अस्तु रमते इति करोतु भगिनि अस्तु हा
रमते न महोदय आरमत आरमत आरमे ताम् आरमन्त आरमताः आरमेथाम् आरमध्वम् अमर् आरमे आरमे
आरमावहि
अरमावहि
अरमामहि तत्र दीर्घत्वं हा रमावहि वर्दावहि अवर्दावहि अं वर्दामहि अरमावहि अरमामहि समीचीनम् अस्तु वेदभगिनी भवती द्वयमपि कृतवती खलु भगिनि
आं महोदय
अस्तु अतः सर्वे कृतवन्तः इति मन्ये एकवारं अथवा अधिकम् अस्तु तर्हि अतः तत्र रूपं कथम् अस्ति इति ज्ञातवन्तः तत्र अपि तत्र प्रायशः तत्र हा तत्र एकवारं परिशीलयामः तत्र अग्रे तत्र लक्ष्मीभगिनी तत्र अग्रे तत्र पुटसङ्ख्या 103 मध्ये एव तत्र एतानि रूपाणि सावधानतया उच्चैः पठत इति अस्ति तत्र एकवारं तत्र क्रियापदत्रयं पठतु भगिनी तत्र वर्तते इति अस्ति एकवारं पठति वा तत्र
103 मध्ये वा
हा 103 मध्ये भगिनि तत्र लट् लकारः लङ्लकारः विधिलिङ्लकारः दत्तमस्ति
लट् लकारः लङ्लकारः विधिलिङ्लकारः वर्तते वर्तते लट् लकारे लङ्लकारे अवर्तत विधिलिङ् वर्तेत
वर्तेत हा लभते
लभते लट् लकारे लङ्लकारे अलभत विधिलिङ् लभेत
जायते
जायते लट् लकारे लङ्लकारे अजायत विधिलिङ्लकारे जायेत
हा इति अस्ति हा अस्तु समीचीनं हा तत्र अग्रिममपि पठतु तत्र
शोभदे लट्लकारे शोभदे लङ्लकारे अशोभद विधिलिङ्लकारे शोभेत
इति अस्ति समीचीनम् अस्तु अग्रे शुभदा भगिनी अग्रे
आं महोदय कम्पते लङ्लकारे अकम्पत विधिलिङ्लकारे कम्पेत विद्यते लङ्लकारे अविद्यत विधिलिङ्लकारे विद्येत प्रार्थयते लङ्लकारे प्रार्थयत विधिलिङ्लकारे प्रार्थयेत
अग्रे
अग्रे उत्पद्यते लङ्लकारे उदपद्यत विधिलिङ्लकारे उत्पद्येत
हा इदानीं तत्र विषयः कः तत्र उपसर्गः अस्ति तत्र
अत्र उत्पद्यते लङ्लकारे उद् किमर्थमस्ति
तत्र उत् इति हा तत्र शुभदभगिनी उत् इति उपसर्गः अस्ति अतः तत्र कार्यं कथं कुर्मः वयं तत्र लकारस्य निर्माणं कथं कुर्मः उपसर्गः अस्ति चेत्
उपसर्गः अस्ति चेत् उपसर्गः तदनन्तरं लङ्लकारस्य अट् वा आट् वा आगमः तदनन्तरं लङ्लकारस्य रूपं
इदानीं तत्र रूपं हा अतः उपसर्गरहितधातुः स्वीकृत्य
उपसर्गरहितधातुः स्वीकृत्य तस्य लङ्लकाररूपं प्रथमं तु स्थापयेत् तद् तत्पूर्वं अट् वा आट् वा आगमः स्थापयेत् तत्पूर्वं
पुनः तत्र उपसर्गः अतः तत्र किं भवति
अत्र उत् योगः
उद्योगः पद्यते
उद्योगः पद्यते लङ्लकारे उत् योगः अयोगः पद्यत इति भवति उद्योगः अ तत्र उद इति भवति जष्ट्वे कृते तदनन्तरं वर्णमेलनेन उद पद्यत
इति रूपं नरेश महोदय अतः तत्र उत् योगः अपद्यत इति तत्र अस्ति अतः तत्र उदपद्यत इति भवति तत्र
अवगतं धन्यवादः
किन्तु अत्र तत्र पद्यत तत्र केवलं तत्र लङ्लकारे अकारस्य आदेशः अस्ति आदौ किन्तु विधिलिङ्गकारे पद्येत इति एव अस्ति अतः तत्र उपसर्ग पुनः स्थापयामश्चेत् कोऽपि परिवर्तनं नास्ति उत्पद्येत इति एव रूपं भवति तत्र समीचीन अस्तु अग्रे तत्र शोभा भगिनी अग्रिमद्वयं करोति वा
आं महोदय लट् लकारे रमते लङ् लकारे अरमत विधिलिङ्गकारे रमेत इति अपि च लट्लकारे विजयते लङ्लकारे व्यजयत विधिलिङ्गकारे विजयेत इति
इदानीं तत्र विषयः कः
तत्र अरमत इति अट् आगमस्य तदनन्तरम् आयोगः रमत न अरमत इति एव तत्र लङ्लकारस्य रूपम् अपि च विजयते इत्यस्य व्यजयत
तत्र किमर्थम् इति
तत्र
उपसर्गः
उपसर्गः तदनन्तरम् अजयत इति लङ् रूपं भवति वियोगः आ तत्र यकारः आगच्छति
तत्र यण्सन्धि
तत्र यण्सन्धिः भवति अतः इकारस्थाने यण् अतः व्यजयत इति रूपं भवति तत्र
अत्र सोपानानि कानि इति तत्र सोपानेन गच्छामः चेत् तत्र किं भवति वियोगः तदनन्तरम् उपसर्गं निष्कासयामः
वदामि वा महोदय
वदतु भगिनि
तत्र उपसर्गं निष्कासयामः तत्र वियोगः अजयत इति स्थापयामः तदनन्तरं वि इत्यस्य इकारः अपि च परवर्णः अकारः अच् वर्णः इको यणचि इकः अच् यण् अचि अचि परे अतः तत्र इकारस्य स्थाने यण् आदेशः भवति तत्र यकारः भवति ई स्थाने अतः तत्र वि योगः आ व्या भवति अनन्तरं व्यजयत इति
रूपं सिद्ध्यं
रूपं सिद्ध्यति
समीचीनं अतः वि योगः जयते वि इति उपसर्गः तं निष्कासयामः केवलं जयते इति भवति जयति इति लङ्लकाररूपम् अजयत इति अस्ति पुनः वि इति स्थापयामः उपसर्गं स्थापयामः वि योगः अजयत वि अन्तिमवर्णः ईकारः अजयत प्रथमवर्णः अकारः ईकारः योगः अकारः यकारः सन्धि इति अतः व्यजायत इति भवति केवलं तत्रैव लङ्लकारे एव तत्र अकारः आगच्छति किन्तु विधिलिङ्गकारे परिवर्तनं नास्ति खलु भगिनि तत्र
नास्ति तत्र नास्ति महोदय जयेत इति अस्ति वि उपसर्गस्य योजनेन किमपि परिवर्तनं न भवति वियोगः जयेत विजयेत इति भवति
यद्रूपं तत्र उपसर्गरहितधातोः यद्रूपं यद् रूपम् अस्ति तदेव रूपं
तदेव तिष्ठति
तिष्ठति परिवर्तनं समीचीनं भगिनि अतः तत्र इदानीं परिचयं जातं तत्र विधिलिङ्गकारस्य अपि लङ्लकारस्य आत्मनेपदी धातूनाम् अपि तयोः मध्ये साम्यमपि अस्ति किञ्चित् भेदः अपि अस्ति, वयमपि अस्माभिः ज्ञातम् एतावत्। इदानीम् अग्रे सरामः, साक्षात् पाठं पठामः, तत्र प्रयोगाः सन्ति, कथं तत्र लङ्लकारस्य प्रयोगः कथं भवति, अपि विधिलङ्लकारस्य अपि कथं भवति इति समीचीनः पाठः अस्ति। तत्र एकस्यां कथायाम् एव तत्र लङ्लकाररूपाणि अपि सन्ति, विधिलिङ्गकाराणि अपि सन्ति, अतः तत् तम् एतं पाठं पठामः तर्हि। अस्तु, तत्र प्रिया भगिनी आरम्भं करोति वा भगिनि?
आम् महोदय। एतां कथाम् उच्चैः पठथ। सौवीरदेशे सञ्जयः नाम राजा अवर्तत। तस्य पिता वृद्धक्षेत्रः, माता च विदुला।
वृद्धक्षेत्रः
क्षम्यताम्,
वृद्धक्षत्रः।
ओ, वृद्धक्षत्रः, अस्तु, क्षम्यताम्। माता च विदुला। कदाचित् सञ्जयस्य समीपराज्यस्थेन सिन्धुराजेन सह युद्धं प्रावर्तत। यद्यपि सञ्जयः भृशम् अयुध्यत, तथापि तस्य सैन्यं पराजयम् अलभत। बहवः सैनिकाः अम्रियन्त। भीतः सञ्जयः प्राणान् रक्षितुं ततः पलायत। राजभवनम् आगतः सः अन्तःपुरं प्राप्य निरुत्साहतया अशेत।
हा, समीचीनं भगिनि, धन्यवादः। अस्तु, अग्रे उषा भगिनी, अग्रे।
आं महोदय। रणाङ्गणात् आगतं पुत्रं विदुला दूरात् एव अलोकत। पश्चात् सा पुत्रस्य निकटं गत्वा अभ्रूत। सञ्जय, भवादृशं भीरुं पुत्रं प्राप्य अहं नितरां लज्जे। भवान् यावज्जीवं युध्येत इति चिन्तनं मम मनसि अवर्तत। परं भवान् भीरुः इव पलायितः। पुत्र, त्वं वीरक्षत्रियकुले कुले अजायताः पलायनं न ते भूषणम्। अतः इदानीम् एव युद्धक्षेत्रं प्रति
निवर्तस्व।
मुहूर्तं ज्वलितं श्रेयः, न तु धूमायितं चिरम् इति वाक्यं स्मर। पराक्रमेण युध्यस्व इति।
हा, समीचीनं भगिनि, धन्यवादः। अग्रे वेदा भगिनि।
महोदय, तदा सञ्जयः, अम्ब, शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बृहत् शक्तियुक्तं च अस्ति, अतः एव वयं पराजयामहि। अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्ये। अद्य यदि तत्र गच्छेयं तर्हि अवश्यम् एव म्रियेय इति अवदत्। विदुला पुत्रस्य वचनं निराकुरुत। सा पुनरपि, पुत्र, भवान् युद्धे विजयेत न वा, चिन्तां मा करोतु, युद्धक्षेत्रं गच्छतु। राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वीरन्?
तावत्पर्यन्तं, तावत्पर्यन्तं, धन्यवादः भगिनि। किं कुर्वीरन्? अस्तु, अग्रे नरेश महोदय।
ते किं कर्तव्यता विमूढाः जायेरन्। अतः भवान् आदौ विकीर्णस्य सैन्यस्य एकत्रीकरणं कुर्वीत। सिन्धुराजस्य सैन्ये विद्यमानान् दोषान् लोपान् च जानीयात्। तस्य शत्रवः राजानः ये सन्ति तान् अपि आह्वयेत्। तदनन्तरं तेन सह युध्येत। भवान् अवश्यं विजयेत इति तं प्रोत्साहितवान्। मातुः
प्रोत्साहितवती। अस्तु अग्रे अग्रे अपि किञ्चित् पठतु महोदय.
मातुः वचनेन सञ्जयः जागरितः. सः असामान्यं धैर्यम् अलभत. तस्य उत्साहः अवर्धत. सः उत्थाय मातरं प्रणम्य अम्ब धीरमातुः भवत्याः वचनैः अहं नूतनः मनुष्यः अजाये. मम पराक्रमं लोकताम्. अद्य अवश्यं विजयं लभेय. इति उक्त्वा युद्धार्थं प्रातिष्ठत.
प्रातिष्ठत, समीचीनम्. अस्तु अग्रे लक्ष्मी भगिनी.
अस्तु सञ्जयः मातुवचनानुसारं शीघ्रमेव सैन्यं सज्जीकृत्य झटिति शत्रोः सैन्यस्य उपरि आक्रमणम् अकुरुत. विजयोन्मत्तः सिन्धुराजः तस्य सैनिकाः च एतेन आक्रमणेन व्यस्मयन्त. सञ्जयस्य सैनिकाः अपूर्वशौर्येण अयुध्यन्त. विजयम् अलभन्त च. विजयश्रीलालितं पुत्रं विदुला यथोचितं स्वागतीकृतवती.
हा समीचीनं भगिनि. हा धन्यवादः. अस्तु अतः तत्र मिश्रणम् अस्ति. लङ्लकाररूपाणामपि रूपाणि अपि सन्ति, विधिलिङ्गकाराणि अपि सन्ति. तयोः मिश्रणम् अस्ति अत्र. अतः तत्र कुत्र लङ्लकारः कुत्र विधिलिङ्गकारः इति तत्र सावधानम् अपेक्षितमस्ति. अस्तु तर्हि तत्र शोभा भगिनी इदानीं तत्र पङ्क्तिशः कुर्मः, आरम्भं करोति वा भगिनी?
आम् महोदय. सौवीरदेशे सञ्जयः नाम राजा अवर्तत. तत्र अवर्तत, तत्र अकारः दृश्यते आदौ, अतः तत्र लङ्लकारः एव इति ज्ञातुं शक्नुमः. तत्र वृत् इति धातोः वर्तते अवर्तत इति भवति. प्रथमपुरुषे एकवचने. तस्य पिता वृद्धक्षत्रः. तस्य पितुः नाम वृद्धक्षत्रः. माता च विदुला इति आसीत्. कदाचित् सञ्जयस्य समीपराज्यस्थेन, राज्यस्थः इत्युक्ते राज्ये स्तः इत्यस्य, राज्यस्थेन इत्युक्ते तत्र तृतीया भवति, राज्यस्थः इत्यस्य.
हा तत्र प्रातिपदिकं राज्यस्थः.
राज्यस्थः प्रातिपदिकं वा महोदय?
हा तत्र तत्र वाक्ये तत्र सिन्धुराजेण सह युद्धं प्रावर्तत इति अस्ति खलु?
आम्.
हा अतः तत्र सिन्धुराजेण इति अस्ति, समीपराजस्थेन इति अपि अस्ति, तयोः मध्ये
तत्र
हा विशेषणविशेषभावः तत्र.
हा समीपराज्यस्थेन सिन्धुराजेन. सिन्धुराज इति समीपराज्यस्थः, समीपस्य राज्ये एव स्थितः राजा.
हा स्थितः राजा सः सिन्धुराजः.
सिन्धुराजः इति
तत्र समीपे स्थितः, समीपस्य राज्ये स्थितः सिन्धुराजः. तेन सह इति तत्र किमर्थं तत्र सिन्धुराजेन इति अस्ति, न तु सिन्धुराज्ञा इति?
तत्र समस्तपदम् अस्ति इति कृत्वा पदस्य परिवर्तनं, लिङ्गपरिवर्तनं परिवर्तनं भवति.
केवलं परिवर्तनं भवति. राजा इति पदस्य प्रातिपदिकं किं?
राजन् इति अस्ति.
हा राजन् तस्य तृतीया भवति
राज्ञा.
हा किन्तु अत्र सिन्धुराज्ञा इति नास्ति, सिन्धुराजन् राजेन इति अस्ति.
यथा महाराजवत् इति.
हा तादृशं समीचीनं भगिनि. यथा महाराजः अकारान्तपदं, तादृशमेव तत्र सिन्धुराजः अपि अकारान्तपदं, न तु सिन्धुराजा इति नकारान्तपदं नास्ति, सिन्धुराजः इति अकारान्तपदम्. अतः तत्र तत्र
प्रथमः
समीपराज्यस्थः सिन्धुराजः तेन सह युद्धं
प्रावर्तत इत्युक्ते तत्र अवर्तत इति प्रा उपसर्गस्य योजनेन तत्र सवर्ण न सवर्ण तत्र प्रावर्तत इति भवति. यद्यपि सञ्जयः भृशम् अयुध्यत तथापि तस्य सैन्यं पराजयम् अलभत. तत्र भृशम् इत्युक्ते शोभनम् इति सम्यक् रीत्या हा भृशम् एव अयुध्यत. तत्र पुनः लङ्लकारः युद्धं कृतवान् इति
तत्र लट्लकारे
युध्यते इति अस्ति. अयुध्यत इति प्रथमपुरुषे एकवचने. तथापि
तत्र विधिलिङ्गकारः किं भवेत्?
विधिलिङ्ग युध्येत.
समीचीनं युध्येत.
युध्येत. तथापि तस्य सैन्यं पराजयम् अलभत. तत्र लभते इत्यस्य पुनः लङ्लकारे अलभत इति लब्धातुः. बहवः सैनिकाः अम्रियन्त. तत्र मृ इति धातुः, म्रियते इति भवति. तत्र बहुवचने म्रियन्ते इति मन्ये महोदय. म्रियन्ते इति भवति चेत् लङ्लकारे अम्रियन्त इति भवति.
अम्रियन्त म्रियन्ते म्रियते म्रियेते म्रियन्ते
म्रियन्ते आत्मनेपदी रूपं रूपाणि अम्रियन्त इति अट् योगः म्रियन्त इति. भीतः सञ्जयः प्राणान् रक्षितुं ततः पलायत. तत्र अकारः नास्ति. पलायत इति विधिलिङ्गरूपम्.
न भगिनि, न तदपि लङ्लकारः एव अस्ति. तत्र
किं
विशिष्टपदम् अस्ति. एतत् विशिष्टपदम् अस्ति, तस्मिन् विषये किञ्चित् वक्तव्यमस्ति. इदानीं मास्तु, किन्तु तत्र पल् इति तत्र उपसर्ग इव अस्ति. तत्र एति इति अस्ति इति मन्ये. तत्र
महोदय, तत्र परा इति उपसर्गः अस्ति, अपि च अय इति
धातुः अस्ति. अय इति धातुः. किन्तु तत्र कारणमपि अस्ति. तत्र रकारः किमर्थं लकारः भवति इति वदति वा भगिनि? तत्र
अहं न जानामि महोदय.
किन्तु विशिष्टपदम् अस्ति तत्र पर इति. पर् योगः अय इति, खलु भगिनि?
फलयोगः अय वा महोदय?
परा इति अस्ति किल, परा प्रपरा परा इति द्वितीयः उपसर्गः. परा योगः अय इति
परा अस्ति चेत् परायत भवति.
परा इति वा पर् पर् इति वा अस्तु. किन्तु तत्र किन्तु तत्र किमपि अस्ति, अहं न स्मरामि इदानीं. किन्तु विशिष्टपदम् अस्ति अत्र.
तत्र पल् विहाय तु आयत इति अस्ति लङ्लकारे प्रथमपुरुषे एकवचने. आयत तस्य पल् योजनेन पर् योजनेन पल् भूत्वा पलायत इति भवति वा?
तादृशं किमपि नास्ति भगिनि. अतः विशिष्टपदमस्ति, अतः तत्र. किन्तु इदानीं विशिष्टपदम् इति तत्र जानीमः, तदनन्तरं चर्चां कुर्मः.
राजभवनम् आगतः सः अन्तःपुर प्राप्य अन्तःपुरं क्षमता प्राप्य निरुत्साहतया अशेत. तत्र शी इति धातुः, शेते इति भवति आत्मनेपदि धातुः. अशेत इति तत्र लङ्लकारे पुरुषे एकवचने अशेत इति. अत्र अन्यत्
तावदेव अस्ति. तत्र निरुत्साहतया इति अस्ति, तत्र किम् अस्ति?
तत्र प्रथमतया तत्र उत्साहता इति अस्ति. उत्साहता इति दीर्घाकारान्त स्त्रीलिङ्ग तल् प्रत्ययपदं भवति. तस्य निर् इति उपसर्गस्य योजनेन निरुत्साहता इति भवति. स्त्रीलिङ्गे अस्ति इति कृत्वा तत्र तृतीयविभक्ति निरुत्साहतया इति भवति.
समीचीनं. तत्र भावः इति भावः निरुत्साहतया
भावः
सन्तोषेण इति यथा वदामः तृतीया भवति. तत्र अपि तृतीया अशेत तत्र केन भावेन तत्र कया अतः तत्र निरुत्साहतया सः अशेत. समीचीनं भगिनि. अस्तु धन्यवादः.
धन्यवादः.
अग्रे शुभदा
महोदय. तत्र तत्र भावे तृतीया न तु साधनतृतीया किल?
हा सत्यं भगिनि. हा हा सत्यं. हा कारण इति नास्ति, केवलं तत्र निरुत्साह आसीत् इति कृत्वा तत्र शयनं कृतवान् इति नास्ति. तत्र शयनसमये अपि तत्र निरुत्साहः आसीत्.
निरुत्साहयुक्तः भूत्वा
तत्र तद् अत्र अपि अस्ति, शयनसमये अपि अस्ति. अतः साधनं नास्ति, भावः अस्ति. सत्यं.
धन्यवादः.
अस्तु अग्रे शुभदा भगिनि.
आं महोदय. रणाङ्गणात् आगतं पुत्रं विदुला दूरात् एव अलोकत. यदा सञ्जयः रणाङ्गणात् प्रत्यागतवान् तदा विदुला तं दूरात् एव अलोकत. अलोकत इति लङ्लकारं लङ्लकारे लुक् लोकधातुः तस्य लोकते तस्य लङ्लकारे प्रथमपुरुषे एकवचने अलोकत इति भवति. सा तस्याः पुत्रं रणाङ्गणात् आगतं दूरात् एव दृष्टवती इति अर्थः. पश्चात् सा पुत्रस्य निकटं गत्वा अब्रूत. अब्रूत अपि लङ्लकारः तस्य ब्रू इति धातुः पुनः लङ्लकारः
इति स्थाने अब्रूत. समीचीनम्.
अब्रूत इति
अवदत्
उक्तवती इति अवदत्. सञ्जय भवादृशं भीरुं पुत्रं प्राप्य अहं नितरां लज्जे. तम् उद्दिश्य पुत्रम् उद्दिश्य सा वदति, सा अब्रूत उक्तवती भवादृशं भीरुं पुत्रं. भीरुम् इत्युक्ते सः भीतवान् रणाङ्गणात् भीतवान् अपि च पलायितवान्. अतः
भीरुं धैर्यं धैर्यं नासीत् तस्य.
धैर्यं नास्ति सः भीरुम् इति. भीरुं पुत्रं प्राप्य अहं नितरां लज्जे. अतः अत्र अपि लज्जे इति अत्र तु लट्लकार एव अस्ति. लज् इति धातोः लट्लकारे प्रथम उत्तमपुरुषे एकवचने अहम् अहम् अस्ति. अतः नितराम् इत्युक्ते अतीव इति अर्थे
अतीव लज्जाम् अनुभवामि.
अनुभवामि.
भवादृशं भवादृशम् इति
त्वं सादृशम् इति वक्तुं
तत्र भवतः सदृशः.
भवतः सदृशः.
भवतः सदृशः भीरुः पुत्रं पुत्रः न तस्य तत् कर्मपदं भवति यतोहि प्राप्य इति अस्ति. अतः भवादृशं भीरं पुत्रम् इति भवति.
अहं नितरां लज्जे. भवान् यावज्जीवं युध्येत इति चिन्तनं मम मनसि अवर्तत. भवान् यावज्जीवं यावदेव जीवनम् अस्ति तावत्
तत्र जीवनपर्यन्तम् अन्तिमक्षणपर्यन्तम् आजीवनं भवान् युध्येत इति
मम चिन्तनम् आसीत्.
तत्र युध्येत इति लकारः कः?
अत्र युध्येत इति विधिलिङ्गस्ति. द्विवादिगणीयधातु तस्य विधिलिङ्गलकारे प्रथमपुरुषे एकवचने युध्येत इति भवति. भवान् यावज्जीवम् आजीवनं युद्धं कुर्यात् इति मम चिन्तनम् इति अहं चिन्तितवती. मम चिन्तनम् आसीत्.
मम मनसि अवर्तत मम मनसि एतादृशं चिन्तनम् आसीत् इति वदति अवर्तत इत्युक्ते पुनः वृत्तधातोः लङ्लकारः तस्य प्रथमपुरुषे एकवचने अवर्तत इति परं भवान् भीरुः इल इव पलायितः
तत्र परं नाम परन्तु
किन्तु भवान् भीरुः इव पलायितः मम अपेक्षाम् अपेक्षाभङ्गः कृत्वा अपेक्षाभङ्गं कृत्वा
अपेक्षायाः भङ्गं कृत्वा
त्वं भवान् रणाङ्गणं अत्यक्त्वा पलायनम् अकरोत् पलायितः
भवत् पलायितः रूपं किं
पलायितः अत्र अत्र अक्तरूपं
पठितं पुस्तकं तादृशं पलायितः
विशेषणमिव अस्ति भवान् पलायितः
भवान् पलायितः तत्र आगतः इति तादृशमेव पलायितः
पलायितः पुत्र त्वं वीरक्षत्रियकुले अजायथाः सा वदति त्वं वीरक्षत्रियकुले जन्म
भवतः जन्म जन्म
भवतः जन्म अभवत्
अजायथाः इति लकारः कः
अजायथाः इति जन धातोः लङ्लकारे
मध्यमपुरुषे एकवचनं समीचीनं
वीरक्षत्रियकुले तव भवतः जन्म अभवत् पलायनं ते न ते भूषणं पलायनं तुभ्यं न शोभते इति
समीचीनं भूषणं न भवति तत्र पलायनम् इति तत्र समान समीचीनं न भवति भवतः कृते
शोभनं नास्ति भवतः कृते
तत्र वीरक्षत्रियकुले तत्र जननं अभवत् तव अतः तादृशपुरुषस्य पलायनं भूषणं न भवति
न भवति अतः इदानीम् एव युद्धक्षेत्रं प्रति निवर्तस्व अतः
इदानीमेव अस्मिन् क्षणे एव
अस्मिन् क्षणे एव युद्धक्षेत्रं प्रति गच्छ इति
प्रति गच्छतु
गच्छतु इति
तत्र प्रति निवर्तस्व इति लकारः कः तत्र
निवर्तस्व इति तु लोट्लकारः लोट्लकारः तस्य मध्यमपुरुषे एकवचने त्वम् इति अस्ति त्वं निवर्तस्व इति सा वदति
नाम तत्त्वं प्रतिगच्छ
प्रतिगच्छ
अत्र निवर्तते निवर्तते इति प्रतिनिवर्तते इति लोट्लकारः प्रतिनिवर्तस्व समीचीनम् अग्रे
अत्रापि वृत्तधातुः एव महोदय
सत्यं भगिनि किन्तु लोट् अस्ति तत्र अर्थः समानः विधिलिङ्ग विद्यार्थी अपि लोट्लकारः अर्थः समानः खलु एतद् भवतु इति
अत्र उपसर्गद्वयमस्ति प्रति अपि च नि इति
सत्यं
परन्तु किमपि परिवर्तनं न भवति निवर्तस्व इति एव तस्य
लोट्लकारे तत्र आदेशः किमपि नास्ति
अस्तु मुहूर्तं ज्वलितं श्रेयः न तु धुमायितं चिरम् इति वाक्यं स्मर तत्तु न अवगतवती महोदय
मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरं नाम तत्र दीपः अस्ति इति चिन्तयतु दीपः ज्वलितम् एकं क्षणं ज्वलितम् अस्ति चेदपि तत् श्रेयः भवति किन्तु तत्र धूपः तत्र दीपः केवलं धूम इव भवति चेत् तत्र सर्वदा धूमरूपेण भवति चेत् तत्र किं लाभः न भवति खलु अतः तत्र उपमानमस्ति नाम अनालजि अस्ति नाम युद्धक्षेत्रे वीरक्षत्रियः तत्र किं युद्धे युद्धं गत्वा तत्र यथा दीपः एकक्षणं ज्वलति सः तद् श्रेयः भवति कस्य अपेक्षया धूमायितुं चिरं धूमायितुम् अपेक्षया नाम वीरक्षत्रियः एकं क्षणम् अथवा एकदिनं तत्र युद्धं कृत्वा यदि पराजयं प्राप्नोति तदपि समीचीनं किन्तु युद्धात् पलायितः भवति चेत् तद् समीचीनं नास्ति इति
मुहूर्तम् इत्युक्ते दीपं वा मुहूर्तं
मुहूर्तम् इत्युक्ते क्षणं
क्षणं
एकमेव क्षणं ज्वलितम् अस्ति चेत् तद् एकमेव क्षणं ज्वलितम् अस्ति किन्तु तद् श्रेयः अस्ति कस्य अपेक्षया सर्वदा धूमायितम् अपेक्षया
अस्तु अवगतम्
एकं क्षणमेव अस्ति किन्तु तद् श्रेयः अस्ति
भवेत् चिरम् इत्युक्ते किम्
चिरम् इत्युक्ते शाश्वतम् सर्वदा सर्वदा इति तत्र धूमायितं चिरं नाम सर्वदा धूमरूपेण अस्ति चेदपि तेन कोऽपि लाभः नास्ति किन्तु श्रेयः कः किमस्ति एकमेव क्षणं भवितुं भवति चेदपि तत् श्रेयः अस्ति
तत्र अभिमन्युवत् महोदय
हा सत्यं भगिनि हा सत्यं हा एकमेव दिनम् एकस्मिन् दिने एव सः तत्र वीरयुद्धं कृतवान् अपि तत्र कीर्तिं प्राप्तवान् सः सत्यं
महोदय तत्र मुहूर्तकालः इत्युक्ते अष्टचत्वारिंशत् निमेषाः महोदय
अष्ट
चत्वारिंशत् 48 मिनिट्स्
इति वा भगिनि अस्तु अस्तु सत्यं भगिनि धन्यवादः भगिनि धन्यवादः
कालस्य अवधिः इति अपि भवति महोदय तत्र
नाम समीचीनं नाम तत्र अवधिः तत्र मितकालः भवितु भवति अपि तद् श्रेयः भवति तत्र चिरम् इत्युक्ते एटर्नल् इति एटर्नल् अपेक्षया लिमिटेड् अस्ति चेदपि तद् श्रेयः भवति क्षणं वा मुहूर्तं यावत् इति
अग्रे पठामि वा
अग्रे एकमेव पराक्रमेण
पराक्रमेण युध्यस्व
पुनः लोट्लकारः अस्तु समीचीनं भगिनि धन्यवादः
धन्यवादः
धन्यवादः भगिनि अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे पठति वा
हा अस्तु महोदय तदा सञ्जयः अम्ब शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बृहत् शक्तियुक्तं च अस्ति अतः पूर्णं पठामि वा
अस्तु भगिनि एकमेकं वाक्यं स्वीकृत्य पठतु तत्र शत्रुसैन्यं
तदा सञ्जयः वदति अम्ब शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बृहत् शक्तियुक्तं च अस्ति
अतः तत्र प्रायश किमपि नास्ति अस्तु
अतः एव वयं पराजयामहि
हा तत्र पराजयामहि किम् अस्ति
लङ्लकारे बहुवचने उत्तमपुरुष
हा
उत्तमपुरुष बहुवचनरूपं
हा तत्र उपसर्गः किम् अस्ति उपसर्गः कः
जय परा इति उपसर्गः
हा जयामहि अजयामहि
जयामहि
अजयामहि
अजयामहि
लङ्लकारः अस्ति खलु अतः अजयामहि पराजयामहि अग्रे
अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्ये
लप्स्ये इति किमस्ति
लप्स्ये लिट् लकारे लिट् लकारे
इति लभते
उत्तमपुरुषे एकवचनं लप्स्ये
हा लप्स्ये समीचीनं अहं लप्स्ये विजयम् अहं लप्स्ये अग्रे लप्स्ये
अद्य यदि तत्र गच्छेयं तर्हि अवश्यमेव म्रियेय इति अवदत्
हा तत्र गच्छेयं यदि तत्र गच्छेयं किमस्ति
गच्छेयं विधिलिङ्ग्
हा विधिलिङ्गकरं गच्छति हा गच्छति परस्मैपदी धातु गच्छति गच्छेयं गच्छामि इति
गच्छेयम्
अहं गच्छेयं यदि अहं
गच्छेयम्
अहं गच्छेयं तर्हि
अवश्यम् एव म्रियेय म्रियेय इति आत्मनेपदि उत्तमपुरुषवचने
हा विदिलिङ्ग् हा
विदिलिङ्ग्
समीचीनम् इति अवदत्
इति अवदत्
हा समीचीनम् अग्रे वाक्यद्वयं करोतु भगिनि
विदुला पुत्रस्य वचनं निराकुरुत
हा तत्र निराकुरुत किमस्ति लकारः
कृ धातुः निरा इति उपसर्गः
विधिलिङ्ग् वा
विधिलिङ्ग् प्रथमपुरुषे एकवचनं
विधिलिङ्ग् वा
लङ्लकारे
हा लङ्लकारः हा लङ्लकारः
लङ्लकारः निराकुरुत निरा निर् उपसर्गः अकुरुत सा पुनरपि पुत्र भवान् युद्धे विजयेत न विजयेत न वा
विजयेत विजयलिङ्ग् हा विजयेत न वा
चिन्ता मा करोतु
हा तत्र विजयस्य विषये चिन्तां चिन्ता
अस्य विषये चिन्ता मा करोतु युद्धक्षेत्रं गच्छतु गच्छतु इति लोट्लकारः राजानं भवन्तं राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वीरन् कुर्वीरन् विधिलिङ्ग् विधिलिङ्ग् बहुवचने अस्ति
हा तत्र किं कुर्वीरन् ते किं कुर्युः तत्र परस्मैपदी अस्ति चेत् कुर्युः
कुर्युः
अस्ति चेत्
कुर्वीरन्
कुर्वीरन् किं कुर्वीरन् किं कुर्युः किं दृष्ट्वा
राजानं भवन्तं पलायितं दृष्ट्वा
पलायति तत्र प्रथमाविभक्तिरूपं वदतु तत्र राजानं भवन्तं पलायितं दृष्ट्वा इति तत्र
राजा भवान्
पलायितः
पलायितः
दृष्ट्वा तं दृष्ट्वा
अस्ति तं दृष्ट्वा सैनिकाः किं कुर्युः
समीचीनं हा धन्यवादः भगिनी अस्तु अग्रे तत्र वेदा भगिनी तत्र एकं वाक्यं वाक्यद्वयं करोति वा अग्रे
ते किं कर्तव्यता विमूढाः किं कर्तव्या विमूढाः जायेरन्
जायेरन् इति लकारः
विधिलिङ्गकारे
हा विधिलिङ्गकारः जायेरन् तत्र हा जायते जायेरन्
जायेरन्
तत्र किं जायेरन् तत्र जायेरन् स्थाने भू धातुः स्थापयति चेत् किं भवति
भू धातु वा जायेरन् स्थाने भू धातु भूय भूयेत भूयेत
भवेत्
ओ भवेत् भवेयातां भवेरन्
न न न भवेयुः
भवेयुः वा ओ ओके
भवेयुः किं भवेयुः नाम इदानीं तत्र किं कर्तव्यता विमूढाः नाम किं
किं ते एकनिमिषं चिन्तां मा करोतु युद्धक्षेत्रं गच्छेत् राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वीरन् ते किं कर्तव्यता विमूढाः जायेरन् इत्युक्ते कर्तव्यविमूढाः
कर्तव्यता विमूढः नाम किं करणीयम् इति न ज्ञात्वा भवन्ति ते किं करणीयं किं कर्तव्यता इति विषये विमूढाः भवन्ति ते नाम तस्मिन् विषये क्लेशम् अनुभवन्ति तत्र किं कर्तव्यमिति न जानन्ति तादृशं भवन्ति ते अतः तादृशः भवन्ति ते अतः किं कर्तव्यता विमूढाः ते भवेयुः अथवा जायेरन् इति अस्ति अस्तु समीचीनं हा अत्रैव स्थगयामः अद्य किन्तु समीचीनं तत्र परिचयमपि जातं विधिलिङ्ग्लकारः अपि लङ्लकारः आत्मैपदिधातूनां अग्रे तत्र किञ्चिदेव पाठम् अस्ति, तदनन्तरम् अभ्यासान् अपि तद् अग्रिमे वर्गे कुर्मः. अतः तत्र प्रिया भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि?
आम् महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिश्शान्तिश्शान्तिः. धन्यवादः.
धन्यवादः भगिनी. सर्वेभ्यो
धन्यवादः.
सर्वेषां नमस्कारः.
धन्यवादः महोदय.
धन्यवादः.